एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दहालः। सर्वकारेण हुम्ला बाजुरा जनपदयोः सीमा सम्बद्ध प्राविधिक पक्षस्य अध्ययनं कृत्वा प्रतिवेदनं प्रस्तोतुं भूमापन विभागस्य उपमहानिर्देशकस्य सुशील डंगोल इत्यस्य संयोजकत्वे समितिः संघटितास्ति। भूमि व्यवस्था सहकारी संघीय विषय सामान्य प्रशासन मन्त्रिणः प्रतिभा रावल इत्यस्याः अध्यक्षतायां ह्यः सिंहप्रासादे उपविष्टेन उपवेशेन एवं समितिं संघटयितुं निर्णीतं वर्तते। समितौ प्रधानमन्त्री मन्त्रिपरिषद कार्यालयस्य गृहमन्त्रालयस्य विधि न्याय संसदीय विषय मन्त्रालयस्य भूमि व्यवस्था सहकारी संघीय विषय सामान्य प्रशासन मन्त्रालयस्य कर्णाली सुदूर पश्चिम प्रदेशयोः मुख्यमन्त्री मन्त्रिपरिषद कार्यालयोश्च पक्षतः प्रतिपक्षम् एकैकं प्रतिनिधयः सदस्याः वर्तन्ते। भूमापन विभागस्य निर्देशकः समिते सदस्य सचिवः निर्धारितोऽस्ति। अत्रान्तरे गृहमन्त्रालयेन हुम्ला बाजुरा जनपदयोः नागरिकाः संयमताम् अवलम्बितुम् अनुरुद्धाः वर्तन्ते। मन्त्रालयेन ह्यो विज्ञप्तिम् प्रकाश्य हुम्ला बाजुरा जनपदयोः सीमाक्षेत्रे घटितायाः घटनायाः सत्यतथ्ये अध्येतुम् प्रहरी वरिष्ठ परीक्षकस्य संयोजकत्वे अनुसन्धान समूह संघटितोऽस्तीति उल्लिख्य संयमताम् अवलम्बितुम् तत्रत्य नागरिकाः अनुरुद्धाः वर्तन्ते। नागरिकाणां जीवनरक्षायै सीमक्षेत्रे शान्तिं स्थापयितुं च सर्वकारः पूर्णतः प्रतिबद्धोऽस्तीति ज्ञापयता मन्त्रालयेन एवम् अनुसन्धान समिति संघटितास्तीति सूचितमस्ति। मन्त्रालयेन ह्यः प्रकाशितायं विज्ञप्तौ अनुसन्धान समूह तत्कालं कार्यस्थले प्रस्थातुं वस्तुस्थितिम् अधीत्य प्रतिवेदनं प्रस्तोतुं च निर्दिष्टोऽस्तीति उल्लिखितम् वर्तते। परराष्ट्रमन्त्री शिशिर खनालः देशस्य समृद्धये परम्परागत कूटनीतिम् आर्थिक कूटनीतौ रूपान्तरयितुं बलं ददाति। नेपाल परराष्ट्र सेवा दिवसस्य अवसरे ह्य काष्ठमण्डपे आयोजिते समारोहे मन्त्री खनालः अन्तर्राष्ट्रिय स्तरे देशस्य प्रतिष्ठां स्थितिं च वर्धयितुं सुदृढ कूटनीतिक प्रयासस्य आवश्यकता अस्तीति प्रत्यपादयत्। परराष्ट्रमन्त्री खनालः वैदेशिक निवेशनस्य पर्यटनस्य विकास संवर्धनयोः प्रवृद्धेः स्थानान्तरणस्य अन्तर्राष्ट्रिय समन्वयस्य च कार्याणां सक्रियरूपेण उपयोगाय परम्परागत दृष्टिकोणे रूपान्तरणस्य आवश्यकतां प्रत्यपादयत्। पोखरा महानगरपालिकया आपणस्य मध्यभागे प्रवहमाणायाः फिर्के खोला नद्याः तटीयक्षेत्रे अवैधरूपेण निर्मितानां संरचनानां त्रोटनस्य अपसारणस्य च कार्यं प्रारब्धं वर्तते। फिर्के खोला नद्याः भागेषु निवसन्तो जनाः संरचनां निर्मितवन्तो जनाः संस्थाश्च सार्वजनिक भूमेः अतिक्रमणं कृत्वा अवैधरूपेण निर्मितानां संरचनानाम् अपसारणाय भञ्जनाय च पूर्वमेव संसूचिताः आसन् इत्यतः ह्यस्तनदिवसात् अभियानस्यैव रूपेण स्थलत्रयात् नदीक्षेत्रस्य रिक्तीकरणस्य कार्यं प्रारब्धमस्तीति महानगरस्य प्रमुख धनराज आचार्यः असूचयत्। महानगरेण सार्वजनिक सूचनायाः प्रकाशनस्य पश्चात् कतिपय संस्थाभिः स्वस्य संरचनाः रिक्तीकृताः वर्तन्ते। फिर्के खोला नद्याः क्षेत्रस्य अतिक्रमणं कृत्वा 97 अस्थायी संरचनाः 35 अस्थायी संरचनाश्च निर्मिताः सन्तीति प्राप्तं वर्तते इति महानगरेण ज्ञापितं विद्यते। एवमेव नद्याः उपरि 10 अस्थायी संरचनाः 18 अस्थायी प्रकृतेः संस्थागत संरचनाश्च निर्मिताः सन्तीति ज्ञापितमस्ति। भूम्यावासहीनानां जनानां वसतीनाम् अपसारणेन सहैव काष्ठमण्डप महानगरपालिकया अस्मिन् वर्षे नदीजन्य विपदः घटनासु न्यूनता भविष्यतीति अपेक्षितं वर्तते। काष्ठमण्डप महानगरपालिकायाः 11 14 31 द्वात्रिंश वडा क्षेत्रेषु नदीनां तटीय क्षेत्रेषु निवसतां नागरिकाणाम् अपसारणस्य पश्चात् नदीजन्य विपदः घटनासु न्यूनता भविष्यतीति महानगरस्य प्रहरी वरिष्ठ परीक्षकः विष्णु प्रसाद जोशी असूचयत्। जोशिनः अनुसारेण सामाखुशी स्थानात् खाडीपाखा स्थानं यावत् सावधानता अवलम्बनीया वर्तते। वर्षायामस्य बेलायां वर्षाज घटना न्यूनीकर्तुम अपि महानगरेण स्थानानि निश्चित्य रणनीतिक योजना निर्मिता स्थिति प्रहरी वरिष्ठो परीक्षक जोशी असूचयत। उद्योग वाणिज्य पूर्ति मन्त्री गौरी कुमारी यादव सर्वकारः पीतानाम् उद्योगानाम् पुनः सञ्चालनाय पूर्व कार्याणि विदधानोस्तीति सूचयति। हेटौडा वज्रचूर्णोद्योगस्य ह्यो निरीक्षणस्य पश्चात् मन्त्री यादव सर्वकारेण हेटौडा वज्रचूर्णोद्योगस्य समस्याः गभीरेण गृहीताः सन्ति। शीघ्रमेव सर्वविध समस्यानां समाधानं कृत्वा नियमित रूपेण उद्योगस्य सञ्चालनस्य वातावरणं भविष्यति इति च समाश्वासयत्। कदाचित् पिधानस्य कदाचित् सञ्चालनस्य च अवस्थां याम विद्यमानस्य उद्योगस्य अवस्थां ज्ञातुं मन्त्री यादवः यः उद्योगस्य निरीक्षणेन सहैव व्यवस्थापन पक्षस्य प्रतिनिधिभिः कर्मचारिभिश्च सह विमृष्टवती आसीत्। तदवसरे मन्त्री यादवः सर्वकारस्य स्वामित्वे विद्यमानस्य उद्योगस्य पिधानस्य स्थितिं प्रति चिन्तां व्यक्तवती आसीत्। राष्ट्रिय स्वतन्त्र दलस्य प्रथम राष्ट्रिय महाधिवेशनायोजनस्य पूर्व कार्यकार्यतालिकां स्वीकृत्य कार्यतालिकायाः विषयः प्रदेश जनपद सभापतिभ्यः विज्ञापितो वर्तते। स्वीकृत कार्यतालिकायाः अनुसारेण अस्यैव ज्येष्ठमासस्य पञ्चदशम् दिवसम् यावत् सप्तसप्तत्यामेव जनपदेषु सप्तष्वेव प्रदेशेषु च निर्वाचन समितीनां संगठनस्य कार्यं समापनीयम् अस्ति इति दलस्य केन्द्रीय निर्वाचनायोगेन ज्ञापितम् वर्तते। एवमेव ज्येष्ठस्य विंशम् दिवसम् यावत् स्थानीय स्तरस्य जनपदाधिवेशनानां च प्रतिवेदनम् संकलनीयम्। त्रिंशम् दिवसम् यावत् जनपदाधिवेशनस्य निर्वाचनस्य प्रतिवेदनम् केन्द्रे प्रस्तोतव्यम् च वर्तते। राष्ट्रपदलेन आगामिनः आषाढमासस्य सप्तमे अष्टमे नवमे च दिवसेषु चितवन जनपदे प्रथम राष्ट्रिय महाधिवेशनम् आयोक्ष्यमाणम् वर्तते।